एस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल नेपाले गतदिने अष्टौ सहस्राणि त्रिचत्वारिंशदुत्तर शतद्वयं च जना कोरोना संक्रमणात् मुक्ता सन्ति अनेनसार नेपाले ह्यस्तनावधि लक्ष्य चतुष्टयं चतुराशीति सहस्राणि त्रिसप्तत्यधिक शतत्रयं च कोरोना संक्रान्ता जना स्वास्थ्य लाभ प्राप्ता सन्ति प्राप्त स्वास्थ्य लाभानां जनानां अंकमान प्रतिशतं दशमलव अष्टाधिक द्व्यशीतिरस्तीति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति या अतिरिक्तेषु पञ्चसहस्रेषु द्वाचत्वारिंशति च जनेषु कोरोना विषाणु संक्रमण पुष्टिभूतं वर्तते ह्य अतिरिक्ता अष्टषष्ठी जना कोरोना संक्रमणस्य कारणेन अम्रियन्त अत्र नेपाली सेनया पूर्वं विभिन्नेषु दिनेषु व्यवस्थापितानां संक्रान्तानां सभानां च संख्या समाविष्टा स्थिति मन्त्रालयसौ ज्ञापयति अनेन सह नेपाले ह्यस्तनावधि सप्तसहस्राणि उनशताधिक सप्तशतं च जना कोरोना संक्रमणस्य कारणेन प्राणान् अत्यजन् कोरोना संक्रमणस्य द्वितीय लहरीया नियन्त्रणमनु वीरगंज महानगरपालिका क्षेत्रस्य नैजाः सामुदायिकाश्च विद्यालयः आगामिनः आषाढमासस्य प्रथमदिवसात् संचालयिष्यते संक्रमणस्य वर्धनानन्तरं मासद्वयेन पिदापितेषु वीरगंजस्य नैजेषु सामुदायिकेषु च विद्यालयेषु आषाढस्य प्रथमदिवसात् अष्टमकक्षातो द्वादशकक्षां यावत् संचालयितुं निर्णीतमिति महानगरपालिकायाः प्रमुख प्रशासकीयाधिकृतः प्रदीप कुमार निरौला अज्ञापयत् आषाढस्य पञ्चदश दिवसस्य अनन्तरं नियमित रूपेण सर्वान् विद्यालयान् संचालयितुं पूर्वकार्यं विहितमस्तीति महानगरपालिकया ह्य प्रकाशितायं विज्ञप्तौ उल्लिखितमस्ति काष्ठमण्डप महानगरपालिकया परश्वः ज्येष्ठस्य पञ्चविंश दिवसात् षष्टितः चतुष्षष्टि वर्षाणां वयसमूहस्य व्यक्तिभ्यः आधास्यमान कोविड उनविंशते विरोधिनः टीकाकरणस्य संचालन केन्द्राणां नामानि प्रेषयितुं वडाक्षेत्र टीकाकरण समन्वय समित्यै पत्राचारः विहितोऽस्ति षष्टितः चतुष्षष्टि वर्षाणां वयसमूहस्य व्यक्तिभ्यः भेरोसेल नामकं टीकाकरणस्य प्रथमा मात्रा आधास्यमानास्ति इति मन्त्रालयेन ज्ञापितं वर्तते डोटी जनपदस्य आदर्श ग्रामपालिकायाः प्रथमवडा क्षेत्रस्य चासी ग्रामस्य प्रायः सर्वे नागरिकाः कोविड संक्रमणेन प्रभाविताः सन्ति ग्रामपालिकायाः स्वास्थ्य शाखाया अनुसारेण ग्रामस्य पञ्चाशीतेः जनानां कोविड परीक्षणे विहिते सति पञ्चाशति जनेषु संक्रमणं पुष्टिभूतं वर्तते अपरीक्षित कोरोना संक्रमणेषु अन्येषु नागरिकेषु च ज्वरः कोरोना संक्रमणेन समं लक्षणं च दृष्टेस्तः इति ग्रामपालिकायाः वरिष्ठ स्वास्थ्य सहायता कार्यकर्ता बमबहादुर खड्का ज्ञापयति प्रमुख प्रतिपक्षिणा नेपाली कांग्रेस दलेन सहितैः पञ्चभिः राजनीतिक दलैः प्रधानमन्त्रिणा केपी शर्मा ओलिना विहितं प्रतिनिधि सभायाः विघटनम् असांविधानिकमस्तीति निगद्य ह्यो विज्ञप्तिः प्रकाशिता वर्तते महामार्या वर्तमान परिस्थितौ वस्तुतः कार्यवहनावस्थायां प्राप्तेन प्रधानमन्त्रिणा ओलिना प्रतिनिधि सभाया विघटनस्य न्यायिक प्रकरणस्य सर्वोच्च न्यायालये विचाराधीनतायाः स्थितौ मन्त्रिपरिषदि व्यापकं पुनर्घटनं विधाय सांविधानिक लोकतान्त्रिक मूल्य मान्यतानाम् उपहासो विहितोऽस्तीति विज्ञप्तौ उल्लिखितं वर्तते प्रधानमन्त्रिणः ओलिनो नेतृत्वस्य सर्वकारेण संसदः अवमूल्यनं कृत्वा अध्यादेशस्य माध्यमेन विहितं आयव्ययकानयन कार्यं शिलाखण्ड बालुकानां निर्याताय चुरे क्षेत्र प्रवृत्ति स्थलानाम् उत्खननार्थं विहितम् अनुमति प्रदान सम्बद्धं घोषणं च प्रति संयुक्त रूपेण प्रकाशितायं विज्ञप्तौ खेदः व्यक्तोऽस्ति विज्ञप्तौ नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा विदेन नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन वरिष्ठ नेत्रा माधव कुमार नेपालेन जसपा नेपाल दलस्य अध्यक्षेण उपेन्द्र यादवेन राष्ट्रिय जनमोर्चा दलस्य उपाध्यक्षया दुर्गा पौडेलेन च हस्ताक्षरणं विहितं वर्तते अस्ट्रेलिया देशस्य राजदूत फेलिसिटी जेन बोक ह्य त्रिभुवनान्तर्राष्ट्रिय विमानस्थले आयोजिते कार्यक्रमे नेपाली सेनाया स्वास्थ्यकर्मिणां सुरक्षार्थं आवश्यकी विभिन्ना स्वास्थ्य सामग्री बलाधिकृत रथिने प्रभुराम शर्मणे हस्तान्तरितवान् हस्तान्तरण कार्यक्रमे बलाधिकृत रथी शर्मा मित्रराष्ट्रेण अस्ट्रेलिया देशेन विहिताय सहयोगाय साभारं धन्यवादं ज्ञापितवान् नेपाली कांग्रेस कर्णाली प्रदेश सभाया संसदीय दलेन सर्वकार्य सहभागिना मन्त्रीद्वयस्य नामनी निश्चिते स्तः। दलस्य ह्यस्तनो पवेशेन प्रदेश सभा सदस्य द्वयस्य दीनबन्धु श्रेष्ठस्य यज्ञबहादुर विशी इत्यस्य च नामनी मन्त्रिणी नियुक्ताय मुख्यमन्त्रिण समक्षम परामृष्टे स्तः। कर्णाली प्रदेशे नेपाली कांग्रेस दलस्य समर्थने नेकपा माओवादी केन्द्रस्य नेतृत्वस्य सर्वकार वर्तते। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड कथयति शिक्षकाणां यूनाञ्च याचना नीतिगत रूपेण समाविश्य नेतुम् अवधारणा निर्मिता अस्ति। एकीकृता अखिल नेपाल शिक्षक संगठनस्य केन्द्रीय समित्या ह्य आयोजिते राष्ट्रिय प्रशिक्षणस्य अन्तर्क्रिया कार्यक्रमस्य च श्रव्यदृश्य प्रविधेर विधिना उद्घाटन समारोहे अध्यक्ष दाहाल संविधानस्य लोकतन्त्रस्य राष्ट्रियतायाश्च रक्षायाः विषयं जनतायां प्रापयितुं शिक्षकान् अन्वरुणात्। अध्यक्ष प्रचण्ड उद्घोषित निर्वाचनेन सर्वकारेण संविधान प्रतिकूलतया मन्त्रिपरिषत् पुनः संघटितेति आरोपयन् वर्तमानावस्थायां कोरोना महामार्याः विरुद्धे एकताबद्धतया योद्धुन् सर्वान् आहूतवान्। मापदण्डस्य विपरीततया विषाणु विनाशक द्रवस्य उत्पादनं विक्रय वितरणञ्च विहितम् इत्यभियोगे ललितपुरवर्तिन्या ओम निर्माया हेल्थ केयर प्राली संस्थायाः जनद्वयं प्रहरिणा निगृहीतमस्ति। निगृहीतयोः संस्थायाः संचालकद्वयं ललितपुरस्य महालक्ष्मी नगरपालिकायाः नीरेश थापा विराटनगर महानगरपालिकायाः चतुर्दश वडा क्षेत्रस्य अमित ताम्रकारश्च वर्तेते। बांके जनपदे पशुपक्षिणाम् आहारोद्योगे ह्यो विस्फुटे सति एक मृता अन्य जनद्वयम् आहतञ्च सन्ति। नेपाल गंजु महानगरपालिकायाः एकविंश वडा क्षेत्रे स्थितायाम् किसान फिल्मेड उत्पादनशालायाम् रंगलेपनस्य क्रमे उत्पादनोपकरणे विस्फोटिते सति उद्योगे कार्यरतः बारा जनपदस्य कलैया उपमहानगरपालिकायाः ऊनविंशति वर्षीय साविराज मिया घटनास्थले एव मृतः इति बांके जनपद प्रहरी कार्यालयेन ज्ञापितमस्ति। इति समाचारः।